एतत्ते कथितं भूपदेवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणं परमेश्वरीम् आराधिता सैव दृढां भोगस्वर्गापवर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः स नराधिपः प्रणिपत्य महाभागं तं ऋषिं संशितव्रतं निर्विन्नोतिव महत्वेन राज्यापहरणेन च जगाम सद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बाया नदी पुलिरसंस्थितः स च वैश्यस्तपस्तेऽपि देवी सूक्तम् परम् जपन् तौ तस्मिन् पुलिने देव्या हृत्वा मूर्तिम् महीमयीम् अर्घणाम् चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददतुस्तौ बलिं चैव निजगात्रा सुदुःखितम् एवम् समाराधयतो स्त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षम् प्रागचण्डिका देव्युवाच यत्प्रार्थ्यते त्वया भूप त्वया च गुणनन्दन मत्तस्तत्प्राप्यताम् सर्वम् परितुष्टा ददामि तत् मार्कण्डेय उवाच ततो वव्रेण भो राज्यमभिभ्रंश्यन्यजन्मनि अत्रैव च निजम् राज्यम् हतशत्रुबलम् बलात् सोऽपि वैश्यस्ततो ज्ञानम् वव्रेणिर्विन्नमानसः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् देव्युवाच स्वल्पैरहोभिर्नृपते सम्राज्यम् प्राप्स्यते भवान् हत्वा रिपूणस्खलितम् तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्य जन्म देवादिवस्वतः सावर्णिको नाम मनुर्भवान् भुवि भविष्यति वैश्यवर्यत्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः तम् प्रयच्छामि संसिद्ध्यै तव ज्ञानम् भविष्यति मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितम् वरम् बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवम् देव्या वरम् लब्ध्वा सुरथः क्षत्रियर्षभः सूर्या जन्म समासाद्य सावर्निर्भविता मनुः सावर्निर्भविता मनुः क्लीम्बो सत्या सन्तु यजमानस्य कामाः नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् साङ्गायै सायुधायै सपरिवारायै सर्वात्मिकायै श्रीमहात्रिपुरसुन्दर्यै श्रीविद्यायै नमः।